ಸಮಶ್ರವಸ್ತಮಂ ಜ್ಯೇಷ್ಠರಾಜಂ ಬ್ರಹ್ಮಣಾಂ ಬ್ರಹ್ಮಣಸ್ವತಃ ಶೃಣ್ವನ್ನೋತಿಭಿಃ ಸೇದಸಾದನಂ ಪ್ರಣೋ ದೇವೀ ಸರಸ್ವತೀ ವಾಜೇಭಿರ್ ವಾಜಿದೇವತೇ ಧೇನಾಮ ವಿತ್ರಯವತು ಗಣೇಶಾಯ ನಮಃ ಸರಸ್ವತ್ಯೈ ನಮಃ ಶ್ರೀ ಗುರುಭ್ಯೋ ನಮಃ ಹರಿ ಓಂ ಓಂ ನಮೋ ಭಗವತೇ ರುದ್ರಾಯ ಓಂ ನಮಸ್ತೆ ರುದ್ರಮಣ್ಯವ ಉತೋದ ಇಷವೇ ನಮಃ ನಮಸ್ತೆ ಅಸ್ತು ಧನ್ವನೇ ಬಾಹುಭ್ಯಾಮುದತೇ ನಮಃ ಯಾತಯುಷು ಶಿವತಮಾ ಶಿವಂ ಬಭೂವತೇ ಧನುಃ ಶಿವಾಶರವ್ಯಾಯ ದವತಯಾ ನೋ ರುದ್ರಮೃಡಯ ಯಾತೇ ರುದ್ರ ಶಿವಾ ತರುರ ಘೋರ ಪಾಪಕಾಶಿನಿ ದಯಾನಸ್ತನು ವಾಶಂದಮಯಾ ಗಿರಿಶಂತಾಭಿಚಾಕಷಿ ಯಾಮಿಷುಂ ಗಿರಿಶಂ ತಹಸ್ತೆ ಬಿಭರ್ಷಸ್ತವೇ ಶಿವಾಂಗಿರಿತ್ರತಾಂ ಕುರು ಮಾಹಿ ಗುಂಸೀಃ ಪುರುಷಂ ಜಗತ್ ಶಿವೇನ ವಚಸಾ ತ್ವಾ ಗಿರಿಶಾಚ್ಛಾ ವದಾಮಸಿ ಯಥಾ ನಃ ಸರ್ವಮಿಜ್ಜಗದ ಯಕ್ಷ್ಮಗುಂ ಸುಮನಾ ಅಸತ್ ಅಧ್ಯವೋಚದಿ ವಕ್ತಾ ಪ್ರಥಮೋ ದೈವ್ಯೋಭಿಷಕ್ ಅಹೇಗಶ್ಚ ಸರ್ವಾಂಜಂಭಯನ್ ಸರ್ವಾಶ್ಚ ಯಾತು ಧಾನ್ಯಃ ಅಸೌಯಸ್ತಾಮ್ರೋ ಅರುಣ ಉತ ವಪ್ಲುಸ್ವ ಮಂಗಲಃ ಯೇ ಜೇಮಾಗುಂ ರುದ್ರ ಅಭಿತೋ ದಿಕ್ಷಶ್ರಿತ ಸಹಸ್ರಶೋ ವೈಶಾಗುಂ ಹೇಳ ಈಮಹೇ ಅಸವ್ಯೋ ವಸರ್ಪತಿ ನೀಲಗ್ರೀವೋ ವಿಲೋಹಿತಃ ಉದೈನಂ ಗೋಪಾ ಅದೃಶನ್ನ ದೃಶನ್ನುದಹಾರ್ಯಃ ಉದೈನಂ ವಿಶ್ವಭೂತಾನಿ ಸದೃಷ್ಟೋ ಮೃಡಯಾತಿನಃ ನಮೋ ಅಸ್ತು ನೀಲಗ್ರೀವಾಯ ಸಹಸ್ರಾಕ್ಷಾಯ ಮೀಢುಷೇ ಅಧೋಯೇ ಅಸ್ಯ ಸತ್ವಾನೋಹಂ ತೇಭ್ಯೋ ಗರಣವಃ ಪ್ರಮಂಚ ಧನ್ವನಸ್ತ್ವಮುಭಯೋರಾಗ್ನಿಯೋರ್ಜ್ಯಾಂ ಯಾಶ್ಚ ದೇಹಸ್ತ ಇಷವ ಪರಾತಾ ಭಗವೋ ವಪ ಅವತತ್ಯ ಧನುಸ್ತ್ವಗುಂ ಸಹಸ್ರಾಕ್ಷಶತೇ ಶುಧೇ ನಿಶೀರ್ಯ ಶಲ್ಯಾನಾಮುಖಾ ಶಿವೋ ನ ಸುಮನಾ ಭವ ವಿಜ್ಯಂ ಧನು ಕಪರ್ದಿನೋ ವಿಷಯ್ಯೋ ಬಾಣವಾಗುಂ ಉತ ಅನೇಶನ್ನಶೇಷವ ಆಭುರಸ್ಯ ನಿಷಂಗತಿಃ ಯಾತೇಹೇತಿರ್ಮೀಢುಷ್ಟವಹಸ್ತೆ ಬಭೂವತೆ ಧನುಃ ತಯಾ ಸ್ವಾನ್ ವಿಶ್ವದಸ್ವವ ಯಕ್ಷ್ವಯಾ ಪರಿಭುಜ ನಮಸ್ತೆ ಅಸ್ವಾಯುಧಾಯ ನಾದತಾಯ ಧೃಷ್ಟರೇ ಉಭಾಭ್ಯಾಮುತತೆ ನಮೋ ಬಾಹುಭ್ಯಾಂ ತವ ಧನ್ವನೆ ಪರಿತೆ ಧನ್ವನೋ ಹೇತಿರಸ್ವಾನ್ ವೃಣಕ್ತು ವಿಶ್ವತಃ ಅಧೋಯ ಇಷುದಿಸ್ತವಾರಿ ಅಸ್ಮನ್ನಿದೇಹಿತಂ ನಮಸ್ತೆ ಅಸ್ತು ಭಗವನ್ ವಿಶ್ವೇಶ್ವರಾಯ ಮಹಾದೇವಾಯ ತ್ರಯಂಬಕಾಯ ತ್ರಿಪುರಾಂಧಕಾಯ ತ್ರಿಕಾಗ್ನಿಕಾಲಾಯ ಕಾಲಾಗ್ನಿರುದ್ರಾಯ ನೀಲಕಂಠಾಯ ಮೃತ್ಯಂ ಜಯಾಯ ಸರ್ವೇಶ್ವರಾಯ ಸದಾಶಿವಾಯ ಶ್ರೀಮನ್ಮಹಾದೇವಾಯ ನಮಃ ನಮೋ ಹಿರಣ್ಯವಾಹವೇ ಸೇನಾಂಗೇ ದಿಶಾಂ ಚ ಪತಯೇ ನಮೋ ನಮೋ ವೃಕ್ಷೇಭ್ಯೋ ಹರಿಕೇಶೇಭ್ಯಃ ಪಶೂನಾಂ ಪತಯೇ ನಮೋ ನಮಃ ಸ್ವಸ್ತಿಂಜರಾಯ ತ್ವಿಷೇವ ದೇವತೀನಾಂ पतये नमो नमो वप्लुषाय विव्याधिने नानाम् पतये नमो नमो हरिकेशायोपवीतिने पुष्टानाम् पतये नमो नमो भवस्य हेत्ये जगताम् पतये नमो नमो रुद्राय दधामिहे क्षेत्राणाम् पतये नमो नमः सुताय हन्त्याय वनानाम् पतये नमो नमो रोहिताय स्थपतये वृक्षाणाम् पतये नमो नमो मन्त्रिणे वाणिजाय कक्षाणाम् पतये नमो नमो भुवन्तये वारिवत्कृताय औषधीनाम् पतये नमो नम उच्चैर्दोषाय क्रन्दयते पत्नीनाम् पतये नमो नम कृष्णवीताय धावते सत्त्वनाम् पतये नमः नमः सहवानाय निव्याधिन आव्याधिनीनाम् पतये नमो नमः ककुभाय निषङ्गिणेस्तेनानाम् पतये नमो नमो निषङ्गिण इषु धिमते तस्कराणाम् पतये नमो नमो वञ्चते परिवञ्चते स्नायूनाम् पतये नमो नमो निषेदवे परिचरायारण्यानाम् पतये नमो नमः सृकाविभ्यो जिगागुम् सद्भ्यो मुष्णताम् पतये नमो नमो शिवद्भ्यो नक्तम् चरत्यः प्रकृन्तानाम् पतये नमो नम उष्णीषिणे गिरिचराय कुलुञ्चानाम् पतये नमो नम यशोमद्भ्यो धन्वानेभ्यश्च वो नमो नम आधन्वानेभ्य प्रतिदधानेभ्यश्च वो नमो नम आयच्छभ्यो विसृजभ्यश्च वो नमो नमोऽस्यभ्यो विद्यभ्यश्च वो नमो नम आसीरेभ्यश्रयानेभ्यश्च वो नमो नम स्वपद्भ्यो जाग्रभ्यश्च वो नमो नमस्तिष्ठद्भ्यो दावभ्यश्च वो नमो नम सवाभ्यः सवापदेभ्यश्च वो नमो नमो अश्वेभ्योऽश्वपदेभ्यश्च वो नमः नम आव्याधिनीभ्यो विवृद्धन्तेभ्यश्च वो नमो नम उगणाभ्यस्त्रिगुंहतेभ्यश्च वो नमो नमो गृत्सेभ्यो गृत्सपदेभ्यश्च वो नमो नमो प्रादेभ्यो व्रातपदेभ्यश्च वो नमो नमो गणेभ्यो गणपतेभ्यश्च वो नमो नमो विरूपेभ्यो विश्वरूपेभ्यश्च वो नमो नमो महत्यः चुल्लकेभ्यश्च वो नमो नमो रतेभ्यो रतेभ्यश्च वो नमो नमो रथेभ्यो रथपदेभ्यश्च वो नमो नमः सेनाभ्यः सेनानिभ्यश्च वो नमो नमः क्षत्रुभ्यः सङ्ग्रहेतृभ्यश्च वो नमो नमस्तक्षभ्यो रथकारेभ्यश्च वो नमो नमः कुलारेभ्यः कर्वारेभ्यश्च वो नमो नमः पुञ्जिष्ठेभ्यो निषादेभ्यश्च वो नमो नम इषुकृद्भ्यो धन्वकृद्भ्यश्च वो नमो नमो मृगयोभ्यश्वनिभ्यश्च वो नमो नमश्वभ्यश्वपदेभ्यश्च वो नमः नमो भवाय च रुद्राय च नमः शर्वाय च पशुपतये च नमो नीलग्रीवाय च श्रुतिकण्ठाय च नमः कपर्दिने च युक्तये ಯಜ್ಞೇಶಾಯ ಚ ನಮಃ ಸಹಸ್ರಾಕ್ಷಾಯ ಚ ಶತಧನ್ವನೆ ಚ ನಮೋ ಗಿರಿಶಾಯ ಚ ಶಿಪಿವಿಷ್ಟಾಯ ಚ ನಮೋ ಮೀರುಷ್ಟವಾಯ ಕೇಶವತೆ ಚ ನಮೋ ಹಸ್ವಾಯ ಚ ವಾಹನಾಯ ಚ ನಮೋ ಬೃಹತೆ ಚ ವರ್ಷೇಯಸೆ ಚ ನಮೋ ವೃದ್ಧಾಯ ಚ ಸಂವೃತ್ವನೆ ಚ ನಮೋ ಅಗ್ನಿಯಾಯ ಚ ಪ್ರಥಮಾಯ ಚ ನಮಃ ಆಶವೇಜಾಜಿರಾಯ ಚ ನಮಃ ಶೀಘ್ರಿಯಾಯ ಚ ಶೇವ್ಯಾಯ ಚ ನಮಃ ಊರ್ಮ್ಯಾಯ ಚ ವಸ್ವನ್ಯಾಯ ಚ ನಮಃ ಶ್ರೋತಸ್ಯಾಯ ಚ ದ್ವೇಪ್ಯಾಯ ಚ ನಮೋ ಜ್ಯೇಷ್ಠಾಯ ಚ ಕನಿಷ್ಠಾಯ ಚ ನಮಃ ಪೂರ್ವಜಾಯ ಚ ಪರಜಾಯ ಚ ನಮೋ ಮಧ್ಯಮಾಯ ಚ ಪಗಲ್ಭಾಯ ಚ ನಮೋ ಜಗನ್ಯಾಯ ಚ ಬುದ್ಧಿಯಾಯ ಚ ನಮಃ ಸೋಭ್ಯಾಯ ಚ ಪ್ರತಿಸರ್ಯಾಯ ಚ ನಮೋ ಯಾಮ್ಯಾಯ ಚ ಕ್ಷೇಮ್ಯಾಯ ಚ ನಮಃ ಉರ್ವರ್ಯಾಯ ಚ ಖಲ್ಯಾಯ ಚ ನಮಃ ಶ್ಲೋಕ್ಯಾಯ ಚ ವಸಾನ್ಯಾಯ ಚ ನಮೋ ವನ್ಯಾಯ ಚ ಕಕ್ಷ್ಯಾಯ ಚ ನಮಃ ಶ್ರವಾಯ ಚ ಪ್ರತಿಶ್ರವಾಯ ಚ ನಮಃ ಆಶುಷೇಯಾಯ ಚಾಶುಲತಾಯ ಚ ನಮಃ ಶೋಲಾಯ ಚ ವಭಿಂದತೆ ಚ ನಮೋ ವರ್ಮಿಣೇ ಚ ವರೋತಿನೇ ಚ ನಮೋ ಬಿಲ್ಮಿಣೇ ಚ ಕವಚಿನೇ ಚ ನಮಃ ಶ್ರುತಾಯ ಚ ಶ್ರುತಸೇನಾಯ ಚ ನಮೋ ದುಂದುಭ್ಯಾಯ ಚ ಹರಣ್ಯಾಯ ಚ ನಮೋ ದೃಷ್ಟವೇ ಚ ಪ್ರಮುಷಾಯ ಚ ನಮೋ ದೂತಾಯ ಚ ಪ್ರಹಿತಾಯ ಚ ನಮೋ ನಿಷಂಗಿಣೇ ಚೇಷು ಧ್ರಿವತೆ ಚ ನಮಃ ತೀಕ್ಷ್ಣೇಶವೇ ಚಾಯುಧಿನೇ ಚ ನಮಃ ಸ್ವಾಯುಧಾಯ ಚ ಸುಧನ್ವನೆ ಚ ನಮಃ ಶ್ರುತ್ಯಾಯ ಚ ಪತ್ಯಾಯ ಚ ನಮಃ ಕಾಟ್ಯಾಯ ಚ ನೀಪ್ಯಾಯ ಚ ನಮಃ ಸೋತ್ಯಾಯ ಚ ಸರಸ್ಯಾಯ ಚ ನಮೋ ನಾಟ್ಯಾಯ ಚ ವೈಷಂತಾಯ ಚ ನಮಃ ಕೋಪ್ಯಾಯ ಚ ವಟ್ಯಾಯ ಚ ನಮೋ ವಶ್ಯಾಯ ಚ ವಶ್ಯಾಯ ಚ ನಮೋ ಮೇಘ್ಯಾಯ ಚ ವಿದ್ಯುತ್ಯಾಯ ಚ ನಮಃ ಇಂದ್ರಿಯಾಯ ಚ ತಪ್ಯಾಯ ಚ ನಮೋ ವಾತ್ಯಾಯ ಚ ರೇಷ್ಮಿಯಾಯ ಚ ನಮೋ ವಾಸ್ತವ್ಯಾಯ ಚ ವಾಸ್ತುಪಾಯ ಚ ಓಂ ಹರ 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 ಓಂ ನಮಃ ಸೋಮಾಯ ಚ ರುದ್ರಾಯ ಚ ನಮಃ ಸಾಮ್ರಾಯ ಚ ಋಣಾಯ ಚ ನಮಃ ಶಂಗಾಯ ಚ ಪಶುಪತಯೇ ಚ ನಮಃ ಉಗ್ರಾಯ ಚ ಭೀಮಾಯ ಚ ನಮೋ ಅಗ್ರೇ ವಧಾಯ ಚ ದೋರೇ ವಧಾಯ ಚ ನಮೋ ಹಂದ್ರೇ ಚ ಹರಿಯಸೇ ಚ ನಮೋ ವೃಕ್ಷೇಭ್ಯೋ ಹರಿಕೇಶೇಭ್ಯೋ ನಮಸ್ತಾರಾಯ ನಮಃ ಶಂಭವೇ ಚ ಮಯೋ ಭವೇ ಚ ನಮಃ ಶಂಕರಾಯ ಚ ಮಯಸ್ಕರಾಯ ಚ ನಮಃ ಶಿವಾಯ ಚ ಶಿವತರಾಯ ಚ ನಮಃ ತೇಭ್ಯಾಯ ಚ ಕೋಲ್ಯಾಯ ಚ ನಮಃ ವಾರ್ಯಾಯ ಚ ವಾರ್ಯಾಯ ಚ ನಮಃ ಪ್ರತರಣಾಯ ಚೋತ್ತರಣಾಯ ಚ ನಮಃ ಆತಾರ್ಯಾಯ ಚ ದಾತ್ಯಾಯ ಚ ನಮಃ ಷಷ್ಟ್ಯಾಯ ಚ ಭೇನ್ಯಾಯ ಚ ನಮಃ ಸಿಖತ್ಯಾಯ ಚ ಪ್ರವಾಹ್ಯಾಯ ಚ ನಮಃ ಇರಿಂಗ್ಯಾಯ ಚ ಪ್ರಪತ್ಯಾಯ ಚ ನಮಃ ಕಿಗುಂಶಿಲಾಯ ಚ ಕ್ಷಯಣಾಯ ಚ ನಮಃ ಕಪರ್ದಿನೇ ಚ ಪುಲಸ್ತಯೇ ಚ ನಮೋ ಗೋಷ್ಠ್ಯಾಯ ಚ ಗೃಹ್ಯಾಯ ಚ ನಮಃ ಸ್ವಲ್ಪ್ಯಾಯ ಚ ಗೇಹ್ಯಾಯ ಚ ನಮಃ ಕಾಟ್ಯಾಯ ಚ ಗಪರೇಷ್ಠಾಯ ಚ ನಮೋ ಹೃದಯ್ಯಾಯ ಚ ನಿವೇಶ್ಯಾಯ ಚ ನಮಃ ಪಾಗುಂ ಸವ್ಯಾಯ ಚ ರಜಸ್ಯಾಯ ಚ ನಮಃ ಶುಷ್ಕ್ಯಾಯ ಚ ಹರಿತ್ಯಾಯ ಚ ನಮೋ ಲೋಪ್ಯಾಯ ಚೋಲ ಪ್ಯಾಯ ಚ ನಮ ಓಟ್ಯಾಯ ಚ ಸೋನ್ಯಾಯ ಚ ನಮ ಪರ್ಣ್ಯಾಯ ಚ ಪರ್ಣಶಕ್ತ್ಯಾಯ ಚ ನಮೋ ಪರಗುರಮಾಣಾಯ ಚ ವಿಘ್ನತೆ ಚ ನಮ ಆಖಿದತೆ ಚ ಪ್ರಖಿದತೆ ಚ ನಮೋ ವಕ್ಕಿರಿಕೇಭ್ಯೋ ದೇವಾನಾಗುಂ ಹೃದಯೇಭ್ಯೋ ನಮೋ ವಿಕ್ಷೀಣಕೇಭ್ಯೋ ನಮೋ ವಿಚಿನ್ವತ್ಕೇಭ್ಯೋ ನಮ ಆಲಿಹತೆಭ್ಯೋ ನಮ ಆಮೇವತ್ಕೇಭ್ಯಃ ದ್ರಾವೇ ಅಂಧಸಸ್ಪದೇ ದರಿದ್ರನ್ನೀಲಲೋಹಿತ ಯೇಷಾಂ ಪುರುಷಾಣಾಂ ಯೇಷಾಂ ಪಶೂನಾಂ ಮಾಭಿರ್ಮಾನೋ ವೋ ಯೇಷಾಂ ಕಿಂಚನಾಮಮತ್ ಯಾತೇ ರುದ್ರ ಶಿವಾ ತನೋ ಶಿವಾ ವಿಶ್ವಾಃ ಭೇಷಜೀ ಶಿವಾ ರುದ್ರಸ್ಯ ಭೇಷಜೀ ತಯಾ ನೋ ಮೃಡ ಜೀವಸೇ ಇಮಾಗುಂ ರುದ್ರಾಯ ತಮಸೇ ಕಪರ್ದಿಲೇ ಕ್ಷಯತ್ವೇರಾಯ ಪ್ರವರಾವಹೇ ಮತಿಂ ಯಥಾ ನಶ್ಯಮ ಶಕ್ತಿಪದೇ ಚತುಷ್ಪದೇ ವಿಶ್ವಂ ಪುಷ್ಟಂಗಾಮೇ ಅಸ್ಮಿನ್ನನಾತುರಂ ಮೃಳಾನೋ ರುದ್ರೋದನೋ ವಯಸ್ಕೃತಿ ಕ್ಷಯದ್ವೇರಾಯ ನಮಸಾ ವಿದೇವತೇ ಯಚ್ಚಂ ಜಯೋಶ್ಚ ಮನುರಾಯ ಜೇ ಪಿತಾ ತದಶ್ಯಾಮ ತವ ರುದ್ರ ಪ್ರಣೀತೌ ಮಾನೋ ಮಹಾಂದಮುತಮಾನೋ ಅಡ್ಬಕಂ ಮಾನ ಉಕ್ಷಂದಮುತಮಾನ ಉಕ್ಷಿತಂ ಮಾನೋ ವದೇ ಪಿತರಂ ಮೋದ ಮೋದರಂ ಪ್ರಿಯಮಾನಸ್ತನುವೋ ರುದ್ರಲೀಶಃ ಮಾನಸ್ತೋಕೇತನಯೇ ಮಾನ ಆಯುಷಿ ಮಾನೋ ಗೋಷು ಮಾನೋ ಅಶ್ವೇಷು ರೀರಿಷಃ ವೀರಾನ್ಮಾನೋ ರುದ್ರಭಾವಿತೋ ವದಿರ್ ಅವಿಷ್ಮಂತೋ ನಮಸಾ ವಿದೇವತೇ ಆರಾತೇ ಗೋರ್ಣ ಉತ ಪೋರುಷಗ್ನೇ ಕ್ಷಯಗ್ನೇರಾಯ ಸುಂ ನಮಸ್ವೇತೆ ಅಸ್ತು ರಕ್ಷಾಚರೋ ಅಧಿಕ ದೇವ ಬ್ರೂಯದಾಚರ ಶರ್ವ ಯಚ್ಚಕ್ತಿ ಬರ್ಹಾಃ ಸ್ವಹಿಶ್ರುತಂ ಗರ್ತ ಸದಂ ಯುವಾನಂ ಮೃಗನ್ನ ಭೀಮಮುಪಹತ್ವ ಉಗ್ರಂ ಮೃಡಾ ಜನತ್ರೇ ರುದ್ರಸ್ತವಾರೋ ಅನ್ಯಂತೇ ಅಸ್ಮನ್ನಿವ ಪಂತು ಸೇನಾ ಪರಿಣೋ ರುದ್ರಸ್ಯ ಹೇತಿರ್ಮೃಣತ್ತು ಪರಿತ್ರೇಷಸ್ಯ ದುರ್ಮತಿರಗಾಯೋ ಅವಸ್ತಿ ರಾಮಗವದ್ಭ್ಯಸ್ತನುಷ್ವೀಣಸ್ತೋಗಾಯ ತನಯಾಯ ಮೃಡಯ ಮೀಡುಷ್ಟವ ಶಿವ ತಮ ಶಿವೋ ನ ಸುಮನಾ ಭವ ಪರಮೇ ವೃಕ್ಷ ಆಯುಧನ್ ನಿಧಾಯ ಕೃತ್ಯ ವಸಾನ ಆಚರ ಪಿದಾ ಕಂಬಿಪ್ರದಾಗಹಿ ವಿಕಿರಿತ ವಿಲೋಹಿತ ನಮಸ್ತೆ ಅಸ್ತು ಭಗವಃ ಯಾಸ್ತೇ ಸಹಸ್ರಗುಂ ಹೇತಯೋನ್ಯಮಸ್ವನ್ನಿವ ಬಂಧುತಾಃ ಸಹಸ್ರಾಣಿ ಸಹಸ್ರದಾ ಬಾಹುವೋತ್ಸವ ಹೇತಯಃ ತಾಸಾಮೀಶಾನೋ ಭಗವ ಪರಾಶೀ ಆಮುಖಾಕೃತಿ ಸಹಸ್ರಾಣಿ ಸಹಸ್ರಶೋ ಯೇ ರುದ್ರ ಅಲಿಭೋಮ್ಯಾ ತೇಷಾಗುಂ ಸಹಸ್ರಯೋಜನೇ ವಧನ್ವಾರಿ ತನ್ಮಸೇ ಅಸ್ಮಿನ್ ಮಹತ್ಯನ್ನವೇ ಲಕ್ಷೇ ಭವಾ ಅದಿ ನೀಲಗ್ರೀವಾಶಿ ಕಂಠ ಶರ್ವಾ ಅದಃ ಕ್ಷಮಾಚರಾಃ ನೀಲಗ್ರೀವಾಶಿ ಕಂಠಾದಿವಗುಂ ರುದ್ರ ಉಪಶ್ರಿತಾಃ ಯೇ ವೃಕ್ಷೇಷು ತಸ್ಮಿನ್ ಜಯಾ ನೀಲಗ್ರೀವಾ ವಿಲೋಹಿತಾಃ ಯೇ ಭೂತಾ ನಾಮಧಿಪತಯೋ ವಿಶಿಖಾಸ ಕಪರ್ತಿನಃ ಯೇ ಅನ್ಯೇಷು ವಿವಿಧ್ಯಂತಿ ಪಾತ್ರೇಷು ಪಿಬತೋ ಜನಾನ ಯೇ ಪದಾಂ ಬಲಿಲಕ್ಷಯ ಐಲಮೃದಾಯ ವ್ಯುದಃ ಯೇ ದೇರ್ದಾರಿ ಪ್ರಚಲನ್ ಶುಕಾವಂತೋ ನಿಷಂಗಿಣಃ ಯ ಏತಾವಂತಶ್ಚ ಭೂಯಾಗುಂಸ್ರಶ್ಚ ದಿಶೋ ರುದ್ರಾವಿತಸ್ಥಿರೇ ತೇಷಾಗುಂ ಸಹಸ್ರಯೋಜನೇ ವಧನ್ವಾರಿ ತನ್ಮಸೇ नमो रुद्रेभ्यो ये पृथिव्यां ये इन्द्रेक्षे ये दिवि एषामन्नं वातो वर्षविषभस्तेभ्यो दश प्रचिर्दश दक्षिणा दश प्रतिचिर्दशोदिचिर्दशो द्वास्तेभ्यो नमस्ते नो मृणयन्तु तेयम् विष्मो यस्य नो द्वेष्टितम् वोजम् भे ददामि त्र्यम्बकम् यजामहे सुगन्धिम् पुष्टिवर्धनम् उर्वारुकमिव वन्दना मृत्योर्मुक्षीयमामृतात् यो रुद्रो अग्नव्यो अप्सु य ओषधीषु यो रुद्रो विश्व भुवनादिदेश तस्मै रुद्राय नमो अस्तु एते साश्रमयुतम् पाशामृत्योर्वर्त्यायान्तवे तान्यज्ञस्य मायया सर्वानवयजामहे प्रत्यवे स्वाहा प्रत्यवे स्वाहा प्राणानाम् ग्रन्थिरसि रुद्रो वा विशान्तकः तेनान्नेनाप्याय स्वा नमो रुद्राय विष्णवे प्रत्यवे पाहि तमस्तु हि यस्वशस्वदन्वायो विश्वस्य क्षयति वेषजस्य यक्ष्वा महेशौ मनसाय रुद्रम् नमो भिर्देवमथुरम् दुवस्य अयम् मे हस्तो भगवानयम् मे भगवत्तलः अयम् मे विश्वभे सजो यगुम् शिवाभिवर्षणः ॐ शान्ति शान्ति शान्तिः ॐ अग्ना विष्णो सजोषसे मा वर्धन्तु वाङ्गिरः द्युम्नैर्वाजेभिरागतम् वाजश्च मे प्रसवश्च मे प्रयतिश्च मे प्रसितिश्च मे भीतिश्च मे क्रतुश्च मे स्वरश्च मे श्लोकश्च मे श्रावश्च मे श्रुतिश्च मे ज्योतिश्च मे सुवश्च मे प्राणश्च मे बाणश्च मे व्यानश्च मे सुश्च मे चित्तम् च आधीतम् च मे वाक्च मे मनश्च मे चक्षुश्च मे श्रोत्रम् च मे दक्षश्च मे बलम् च ओजश्च मे सहश्च आयुश्च मे जरा च आत्मा च मे तनोश्च मे शर्म च मे वर्म च मेऽङ्गानि च मे स्थानि च मे परोगुंषि च मे शरीराणि च मे जैष्ठ्यम् च माधिपत्यम् च मे मन्युश्च मे भामश्च मे मश्च मेऽम्भश्च मे जेमा च मे महिमा च मे वरिमा च मे प्रथिमा च मे वर्ष्मा च मे द्राघुया च मे वृद्धम् च मे वृद्धिश्च मे सत्यम् च मे श्रद्धा च मे जगच्च मे धनम् च मे वशश्च मे त्विषिश्च मे क्रीडा च मे मोदश्च मे जातम् च मे जनिष्यमाणम् च मे सूक्तम् च मे सुकृतम् च मे वित्तम् च मे वेद्यम् च मे भूतम् च मे भविष्यच्च मे सुगम् च मे सुपथम् च मरुद्धम् च मरुद्धिश्च मे कृत्तम् च मे कृत्तिश्च मे मतिश्च मे सुमतिश्च मे शयम् च मे मयश्च मे प्रियम् च मेऽनुकामश्च मे कामश्च मे सौमनसश्च मे भद्रम् च मे श्रेयश्च मे वश्यश्च मे यशश्च मे भगश्च मे द्रविणम् च मे यन्ता च मे धर्ता च मे క్షేమశ్చ మే ధృతిశ్చ మే విశ్వం చ మే మహశ్చ మే సంవిచ్చ మే జ్ఞాత్రం చ మే సోశ్చ మే ప్రరసోశ్చ మే శీరం చ మే లయశ్చ మరుతం చ మే మృతం చ మే యక్ష్మం చ మే నామయచ్చ మే జీవాతుశ్చ మే దీర్ఘాయుత్వం చ మేన మిత్రం చ మే భయం చ మే సుగం చ మే శయనం చ మే ఊషా చ మే సుదినం చ మే ఊర్జ మే సోనృత చ మే పయశ్చ మే రసశ్చ మే ఘృతం చ మే మధు చ మే సద్భిశ్చ మే సపేతిశ్చ మే కృషిశ్చ మే వృష్టిశ్చ మే జైత్రం చ మౌద్భిద్యం చ మే రయిశ్చ మే రాయశ్చ మే పుష్టం చ మే పుష్టిశ్చ మే విభుచ మే ప్రభుచ మే బహుచ మే భూయశ్చ మే పూర్ణం చ మే పూర్ణతరం చ మే క్షితిశ్చ మే కోయవాశ్చ మే నం చ మే క్షుచ్చ మే బ్రీహయశ్చ మే యవాశ్చ మే మాషాశ్చ మే తిలాశ్చ మే ముద్గాశ్చ మే ఖల్వాశ్చ మే గోధూమాశ్చ మే మసురాశ్చ మే ప్రియంగవశ్చ మే నవశ్చ మే శ్యామాకాశ్చ మే నీవారాశ్చ మే అశ్మాచ మే వృత్తికాచ మే గిరయశ్చ మే పర్వతాశ్చ మే శిఖరాశ్చ మే వనస్పతయశ్చ మే హిరణ్యం చ మే యశ్చ మే శేషం చ మే త్రపుశ్చ మే శ్యామం చ మే లోహం చ మే అగ్నిశ్చ మాపశ్చ మే మేరుధశ్చ మఔషధయశ్చ మే కృష్టపచ్యం చ మే కృష్టపచ్యం చ మే గ్రామ్యాశ్చ మే పశవ ఆరణ్యాశ్చ యజ్ఞేన కల్పంతాం విత్తం చ మే విత్తిశ్చ మే భూతం చ మే భూతిశ్చ మే వసు చ మే వసతిశ్చ మే కర్మ చ మే శక్తిశ్చ మే అర్థశ్చ మేమశ్చ మఇతిశ్చ మే గతిశ్చ మే అగ్నిశ్చ మ ఇంద్రశ్చ మే సోమశ్చ మ ఇంద్రశ్చ మే సవితా చ మ ఇంద్రశ్చ మే సరస్వతి చ మ ఇంద్రశ్చ మే పూషా చ మ ఇంద్రశ్చ మే బృహస్పతిశ్చ మ ఇంద్రశ్చ మే మిత్రశ్చ మ ఇంద్రశ్చ మే వరుణశ్చ మ ఇంద్రశ్చ మే త్వష్టా చ మ ఇంద్రశ్చ మే ధాతా చ మ ఇంద్రశ్చ మే విష్ణుశ్చ మ ఇంద్రశ్చ మే శ్వినో చ మ ఇంద్రశ్చ మే మరుతశ్చ మ ఇంద్రశ్చ మే విశ్వే చ మే దేవా ఇంద్రశ్చ మే పృథివీ చ మ ఇంద్రశ్చ మేంతరిక్షం చ మ ఇంద్రశ్చ మే జోశ్చ మ ఇంద్రశ్చ మే దిశశ్చ మ ఇంద్రశ్చ మే మూర్ధా చ మ ఇంద్రశ్చ మే ప్రజాపతిశ్చ మ ఇంద్రశ్చ మే ఆగుంశుశ్చ మే రశ్మిశ్చ మేదాభ్యశ్చ మే ధృపతిశ్చ మ ఉపాగుంశుశ్చ మే అంతర్యామశ్చ మ ఐంద్రవాయవశ్చ మే మైత్రావరుణశ్చ మ ఆశ్వినశ్చ మే ప్రతి ప్రస్థానశ్చ మే శుక్రశ్చ మే మంత్రిశ్చ మ ఆగ్రయణశ్చ మే వైశ్వదేవశ్చ మే ధ్రువశ్చ మే వైశ్వానరశ్చ మరుతు గ్రహాశ్చ మేది గ్రాహ్యాశ్చ మ ఐంద్రాగ్నశ్చ మే వైశ్వదేవశ్చ మే మరుత్వదేయాశ్చ మే మాహేంద్రశ్చ మ ఆదిత్యశ్చ మే సావిత్రశ్చ మే సారస్వతశ్చ మే పౌష్ణశ్చ మే పార్థివతశ్చ మే హార్యోజనశ్చ మే इद्मश्च मे बर्हिश्च मे वेदिश्च मे धिष्णीयाश्च मे सृजश्च मे चमसाश्च मे ग्रावाणश्च मे स्वरवश्च म उपरवाश्च मे धिषवणे च मे द्रोणकलशश्च मे वायव्यानि च मे ऊतभृच्छ म आधवनीयश्च म आग्नेद्रम् च मे हविर्धानम् च मे गृहाश्च मे सदश्च मे पुरोणाशाश्च मे पचताश्च मेव वृदश्च मे स्वगाकारश्च मे अग्निश्च मे घर्मश्च मेऽर्कश्च मे सूर्यश्च मे प्राणश्च मे श्वमेधश्च मे पृथिवी च मे दितिश्च मे दितिश्च मे द्यौश्च मे शक्वरिरङ्गुलयोदृशश्च मे यज्ञेन कल्पम् ताम्रक्ष मे साम च मे सोमश्च मे यजुश्च मे दीक्षा च मे तपश्च मरुतुश्च मे व्रतम् च मे होरात्रयोर्वृष्ट्या बृहद्रथन्तरे च मे यज्ञेन कल्पेताम् गर्भाश्च मे वत्साश्च मे त्रयविश्च मे त्रयवे च मे द्वित्यवाक्ष मे द्वित्यौहे च मे पञ्चाविश्च मे पञ्चावे च मे त्रिवत्सश्च मे त्रिवत्सा च मे तुर्यवाक्ष मे तुर्यौहे च मे पष्ठवाक्ष मे पष्ठौहे च म उक्षा च मे वशा च मऋषभश्च मे वेहश्च मे नड्वाञ्च मे धेनुश्च म आयुर्यज्ञेन कल्पताम् प्राणो यज्ञेन कल्पतामपानो यज्ञेन कल्पताम् व्यानो यज्ञेन कल्पताम् चक्षुर्यज्ञेन कल्पताश्रोत्रै यज्ञेन कल्पताम् मनो यज्ञेन कल्पताम् वाग्यज्ञेन कल्पताम् आत्मा यज्ञेन कल्पताम् यज्ञो यज्ञेन कल्पताम् एका च मे तिस्रश्च मे पञ्च च मे सप्त च मे नव च म एकादश च मे त्रयोदश च मे पञ्चदश च मे सप्तदश च मे नवदश च म एकविगुंशतिश्च मे त्रयोविगुंशतिश्च मे पञ्चविगुंशतिश्च मे सप्तविगुंशतिश्च मे नवविगुंशतिश्च म एकत्रिगुंशच्च मे त्रयस्त्रिगुंशच्च मे चतस्रश्च मेऽष्टौ च मे द्वादश च मे षोडश च मे विगुंशतिश्च मे चतुर्विगुंशतिश्च मेऽष्टाविगुंशतिश्च मे द्वात्रिगुंशच्च मे षट्त्रिगुंशच्च मे चत्वारिगुंशच्च मे चतुश्चत्वारिगुंशच्च मेऽष्टाचत्वारिगुंशच्च मे वायश्च प्रथवश्चाभिजश्च क्रतुश्च शुवश्च मूर्धाय व्यश्नियश्चान्त्यायनश्चान्त्यश्च भुवनश्च भुवनश्चाधिपतिश्च इडा देवहोर्मनुर्यज्ञनीर्बृहस्पतिरुक्थामदानि सगुंसि षद्विश्वे देवासूक्तवाच पृथिविमातर् मामाहिगुंसिर्मधुमनिष्ये मधुजनिष्ये मधुवक्ष्यामि मधुवदिष्यामि मधुमतीम् देवेभ्यो वाचमुद्यासगुम् शुश्रूषेण्या मनुष्येभ्यस्तम् मा देवा अवन्तु शोभायै पितरो नु मदन्तु ॐ शान्ति शान्ति शान्तिः ॐ तच्छय्योरावृणीमहे गातुं यज्ञाय गातुं यज्ञपतये दैवी स्वस्तिरस्तु नः स्वस्तिर्मानुषेभ्यः ऊर्ध्वं जिगातु भेषजम् शन्नो अस्तु द्विपदे शं चतुष्पदे ॐ शान्ति शान्ति शान्तिः सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्रपाद स भूमिम् विश्वतो वृत्वा अत्यतिष्ठद्दशाङ्गुलम् पुरुष एवेदगुम् सर्वम् यद्भूतम् यच्च भव्यम् उतामृतत्वस्येषारः यदन्नेनातिरोहति एतावारस्य महिमा अतोर्जायादश्च पुरुषः पादोऽस्य विश्वा भूतानि त्रिपादस्यामृतम् दिवि त्रिपादोर्ध्वौ दैत्पुरुषः पादोऽस्येहाभवात्पुनः ततो विश्वम् यक्रामत् साशनानशने अभि तस्माद्विराड जायत विराजो अधिपुरुषः स जातो अत्यरिच्यत पश्चाद्भूमिमथो पुरः यत्पुरुषेण हरिषा देवा यज्ञमतन्वता वसन्तो अस्यासीराज्यम् ग्रीष्म यद्म शरद्धरिः सप्तास्यासन् परिधयः त्रिसप्तसमिध कृताः देवा यद्यज्ञम् तन्वानाः अभद्रन् पुरुषम् पशुम् तम् यज्ञम् बर्हिषि प्रोक्षण्य पुरुषम् जातमग्रतः तेन देवा अयजन्त साध्या ऋषयश्च ये तस्माज्ञात् सर्वभूतः सम्भृतम् पृषदार्ज्यम् पशुगस्तागश्चक्रेवायव्यान आरण्यान् ग्राम्याश्च ये तस्माज्ञात् सर्वभूतः ऋचः सामानि जज्ञिरे छन्दागुंसि जज्ञिरे तस्मात् यजुस्तस्मादजायत तस्मादश्वा अजायन्त एके चोभयादतः गावो हजज्ञिरे तस्मात् तस्माज्जाता अजावयः यत्पुरुषम् व्यदधुः कतिधा व्यकल्पयन् मुखम् किमस्य कौ बाहो का ऊरुपादावुच्येते ब्राह्मणोऽस्य मुखमासीत् बाहोराजन्यकृतः ऊरु तदस्य यद्वैश्यः पद्भ्यागुम् शूद्रो अजायत चन्द्रमा मनसो जातः चक्षोः सूर्यो अजायत मुखादिन्द्रश्चाग्निश्च प्राणाद्वायुरजायत नाभ्या आसीदन्तरिक्षम् शीर्ष्णोद्यौ समवर्तत पद्भ्याम् भूमिर्दिश श्रोत्रात् तथा लोकागुम् अकल्पयन् वेदाहमेतम् पुरुषम् महान्तम् आदित्यवर्णम् तमसस्तु पारे सर्वाणि रूपाणि विचित्य धीरः नामानि कृत्वाभिवदन् यदास्ते धाता पुरस्ताद्यमुराजहार शक्रप्रविद्वान् प्रदिशश्चतस्रः तमेवम् विद्वानमृत इह भवति नान्यः पन्था अयनाय विद्यते यज्ञेन यज्ञमयजन्त देवाः तानि धर्माणि प्रथमान्यासन् ते हनाकम् महिमानः सचन्ते यत्र पूर्वे साध्याः सन्ति देवाः अभ्यः सम्भूत पृथिव्यैरसाच्च विश्वकर्मणः समवर्तताधे तस्य त्वष्टा विदधद्रूपमेति तत्पुरुषस्य विश्वमाजानमग्रे वेदाहमेतम् पुरुषम् महान्तम् आदित्यवर्णम् तमसः परस्तात् तमेवम् विद्वानमृत इह भवति नान्यः पन्था विद्यते यनाय प्रजापतिश्चरति गर्भे अन्तः अजायमानो बहुधा विजायते तस्य धीराः परिजानन्ति योनिम् मरीचीनाम् पदमिच्छन्ति वेदसः यो देवेभ्य आतपति यो देवानाम् पुरोहितः पूर्वो यो देवेभ्यो जातः नमो रुचाय ब्राह्मये वृजम् ब्राह्मम् जनयन्तः देवा अग्रे तदब्रुवन् यस्त्वैवम् ब्राह्मणो विद्यात् तस्य देवा असन्वशे ह्रेश्च ते लक्ष्मीश्च पत्न्यौ अहोरात्रे पार्श्वे नक्षत्राणि रूपम् अश्विनौ व्यात्तम् इष्टम् मनिषाणा अमुम् मनिषाणा सर्वम् मनिषाणा तच्छय्योरावृणीमहे गातुम् यज्ञाय गातुम् यज्ञपतये दैवी स्वस्तिरस्तु नः स्वस्तिर्मानुषेभ्यः ऊर्ध्वम् जिगातु भेषजम् शन्नो अस्तु द्विपदे शं चतुष्पदे ॐ शान्ति शान्ति शान्तिः ॐ अत्रिणात्वाग्रिमेऽहन्मे कण्वेन जमदग्निना विश्वावसोर्ब्रह्मणा हतः कृमीनागुम् राजा अप्येषा दुःस्थपतिर्हतः अथो माताथो पिता अथो स्थूरा अथो क्षुद्राः अथो कृष्णा अथो श्वेताः अथो आशातिका हताः श्वेताभिः सह सर्वे हताः आहरावद्या श्रुतस्य हविषो यथा तत्सत्यम् यदमुह्यमस्य जम्भयोः आदधामि तथा हि तत् खण्फण्मसि ॐ शान्ति शान्ति शान्तिः ॐ नासदासीन्नो सदासीत्तदानीम् नासीद्रजो नो व्यो वा परो यत् किमावरेव कुहकस्य शर्मन् अम्भः किमासीत् गहनम् गभीरम् न मृत्युरमृतम् तर्हि न रात्रिया न आसीत् प्रकेतः आनीदवातग्रस्वधया तदेकम् तस्माद्धान्यन परः किञ्चनासा तम आसीत् तमसा गूढमग्रे प्रकेतम् सलिलगुम् सर्वमा इदम् तुच्छेनाभ्यपिः तञ्यदासीत् तमसस्तन्महिना जायतैकम् कामस्तदग्रे समवर्तताधि मनसोरेत प्रथमं यदासीत् सतो बन्धुमसति निरविन्दन् हृदि प्रतीश्या कवयो मनीषा तिरश्चीनो विततो रश्मिरेषा अधस्विदासे दुपरिस्विदासे रेतोधा आसन् महिमान आसन् स्वधा अवस्तात् प्रयति परस्तात् को अद्धा वेद क इह प्रवोचत् कुत आजाता कुतय्यम् व्यसृष्टिः अर्वाग्देवा अस्य विसर्जनाय अथा को वेदयत आबभूव इयम् विसृष्टिर्यत आबभूव यदि वा दधे यदि वा न यो अस्याध्यक्ष परमे व्योमन् सो अङ्गवेद यदि वा न वेद ॐ शान्ति शान्ति शान्तिः ॐ सहनावतु सहनौ भुनक्तु सह वीर्यम् करवावहै तेजस्विनावधीतमस्तु मा विद्विषावहै ॐ शान्ति शान्ति शान्तिः भृगुर्वै वारुणिः वरुणम् पितरमुपससार अधीः भगवो ब्रह्मेति तस्मादेतत् प्रोवाच अन्नम् प्राणम् चक्षुश्रोत्रम् मनोवाचमिति तगुम्होवाच यतो वा इमानि भूतानि जायन्ते येन जातानि जीवन्ते यत्प्रयन्त्यभिसंविशन्ति तद्विजिज्ञासस्व तद्ब्रह्मेति सतपोतप्यता सतपस्तप्त्वा अन्नम् ब्रह्मेति व्यजानात् अन्नाद्येव खल्विमानि भूतानि जायन्ते अन्नेन जातानि जीवन्ति अन्नम् प्रयन्त्यभिसंविशन्तीति तद्विज्ञाय पुनरेव वरुणम् पितरमुपससार अधीः भगवो ब्रह्मेति तगुम्होवाच तपसा ब्रह्म विजिज्ञासस्व तपो ब्रह्मेति स तपोदप्यता स तपस्तप्त्वा प्राणो ब्रह्मेति व्यजानात् प्राणाद्येव खल्विमानि भूतानि जायन्ते प्राणेन जातानि जीवन्ति प्राणम् प्रयन्त्यभिसंविशन्तीति तद्विज्ञाय पुनरेव वरुणम् पितरमुपससार अधीः भगवो ब्रह्मेति रघुम्होवाच तपसा ब्रह्म विजिज्ञासस्व तपो ब्रह्मेति स तपोदप्यता स तपस्तत्त्वा मनो ब्रह्मेति व्यजानात् मनसो ह्येव खल्विमानि भूतानि जायन्ते मनसा जातानि जीवन्ति मनः प्रयन्त्यभिसंविशन्तीति तद्विज्ञाय पुनरेव वरुणम् पितरमुपससार अधीः भगवो ब्रह्मेति रघुम्होवाच तपसा ब्रह्म विजिज्ञासस्व तपो ब्रह्मेति स तपोदप्यता स तपस्तत्त्वा विज्ञानम् ब्रह्मेति व्यजानात् विज्ञानाद्येव खल्विमानि भूतानि जायन्ते विज्ञानेन जातानि ಜೀವಂತಿ ವಿಜ್ಞಾನಂ ಪ್ರಯತ್ಯಭಿಸಂವಿಶಂತೀತಿ ತದ್ವಿಜ್ಞಾಯ ಪುನರೇವ ವರುಣಂ ಪಿತರಮುಪಸಸಾರ ಅಧೇಹಿ ಭಗವೋ ಬ್ರಹ್ಮೇತಿ ತಗುಂಹೋವಾಚ ತಪಸಾ ಬ್ರಹ್ಮ ವಿಜಿಜ್ಞಾಸಸ್ವ ತಪೋ ಬ್ರಹ್ಮೇತಿ ಸ ತಪೋತಪ್ಯತ ಸತಪಸ್ತತ್ವ ಆನಂದೋ ಬ್ರಹ್ಮೇತಿ ವ್ಯಜಾನಾತ್ ಆನಂದಾದ್ಯೇವ ಖಲ್ವಿಮಾನಿ ಭೂತಾನಿ ಜಾಯಂತೆ ಆನಂದೇನ ಜಾತಾನಿ ಜೀವಂತೆ ಆನಂದಂ ಪ್ರಯಂತ್ಯಭಿಶಂಭಿಶಂತೇತಿ ಸೈಷಾ ಭಾರ್ಗವೇವಾರುಣಿ ವಿದ್ಯಾ ಪರಮೇ ವ್ಯೋಮಂ ಪ್ರತಿಷ್ಠಿತಾಂ ಯ ಏವಂ ವೇದ ಪ್ರತಿತಿಷ್ಠತಿ ಅನ್ನವಾನನ್ನಾದೋ ಭವತಿ ಮಹಾನ್ ಭವತಿ ಪ್ರಜಯಾ ಪಶುಭಿಃ ಬ್ರಹ್ಮವಚ್ಚಸೇನ ಮಹಾನೀರ್ತ್ಯಾಂ ಅನ್ನಂ ನ ನಿಂದ್ಯಾತ್ ತದ್ವ್ರತಂ ಪ್ರಾಣೋ ವಾ ಅನ್ನಂ ಶರೀರಮನ್ನಾದಂ ಪ್ರಾಣೇ ಶರೀರಂ ಪ್ರತಿಷ್ಠಿತಂ ಶರೀರೇ ಪ್ರಾಣ ಪ್ರತಿಷ್ಠಿತಃ ತದೇತದನ್ನಮನ್ನೇ ಪ್ರತಿಷ್ಠಿತಂ ಸಯ ಏತದನ್ನಮನ್ನೇ ಪ್ರತಿಷ್ಠಿತಂ ವೇದ ಪ್ರತಿತಿಷ್ಠತಿ ಅನ್ನವಾನನ್ನಾದೋ ಭವತಿ ಮಹಾನ್ ಭವತಿ ಪ್ರಜಯಾ ಪಶುಭಿರ್ ಬ್ರಹ್ಮವರ್ಚಸೇನ ಮಹಾನ್ ಕೀರ್ತ್ಯಾಂ ಅನ್ನಂ ನ ಪರಿಚಕ್ಷೇತ ತದ್ವ್ರತಂ ಆಪೋವಾ ಅನ್ನಂ ಜ್ಯೋತಿರನ್ನಾದಂ ಅಪ್ಸುಜ್ಯೋತಿ ಪ್ರತಿಷ್ಠಿತಂ ಜ್ಯೋತಿಶಾಪ ಪ್ರತಿಷ್ಠಿತಾಃ ತದೇತದನ್ನಮನ್ನೇ ಪ್ರತಿಷ್ಠಿತಂ ಸಯ ಏತದನ್ನಮನ್ನೇ ಪ್ರತಿಷ್ಠಿತಂ ವೇದ ಪ್ರತಿತಿಷ್ಠತಿ ಅನ್ನವಾನನ್ನಾದೋ ಭವತಿ ಮಹಾನ್ ಭವತಿ ಪ್ರಜಯಾ ಪಶುಭಿರ್ ಬ್ರಹ್ಮವರ್ಚಸೇನ ಮಹಾನ್ ಕೀರ್ತ್ಯಾ ಅನ್ನಂ ಬಹು ಕುರ್ವೀತ ತದ್ವ್ರತಂ ತದೇವ ಅನ್ನಂ ಆಕಾಶೋ ನಾದಃ ಪೃಥಿವ್ಯಾಮಾಕಾಶ ಪ್ರತಿಷ್ಠಿತಃ ಆಕಾಶೇ ಪೃಥಿವೀ ಪ್ರತಿಷ್ಠಿತಾ ತದೇತದನ್ನಮನ್ನೇ ಪ್ರತಿಷ್ಠಿತಂ ಸಯ ಏತದನ್ನಮನ್ನೇ ಪ್ರತಿಷ್ಠಿತಂ ವೇದ ಪ್ರತಿತಿಷ್ಠತಿ ಅನ್ನವಾನನ್ನಾದೋ ಭವತಿ ಮಹಾನ್ ಭವತಿ ಪ್ರಜಯಾ ಪಶುಭಿರ್ ಬ್ರಹ್ಮವರ್ಚಸೇನ ಮಹಾನ್ ಕೀರ್ತ್ಯಾ ನ ಕಂಚನ ವಸತೋ ಪ್ರತ್ಯಾಚಕ್ಷೀತ ತದ್ವ್ರತಂ ತಸ್ಮಾದ್ಯಯಾ ಕಯಾ ಚ ವಿಧಯಾ ಭಕ್ವನ್ನಂ ಪ್ರಾಪ್ನುಯಾತ್ ಅರಾಧ್ಯಸ್ಮಾ ಅನ್ನಮಿತ್ಯಾಚಕ್ಷತೆ ಏತದ್ವೈ ಮುಖದೋನ್ನಗುಂ ರಾಧ್ಯಂ ಮುಖದೋಸ್ಮಾ ಅನ್ನಗುಂ ರಾಧ್ಯತೆ ಏತದ್ವೈ ಮಧ್ಯತೋನ್ನಗುಂ ರಾಧ್ಯಂ ಮಧ್ಯತೋಸ್ಮಾ ಅನ್ನಗುಂ ರಾಧ್ಯತೆ ಏತದ್ವಾ ಅನ್ನತೋನ್ನಗುಂ ರಾಧ್ಯಂ ಅಂತತೋಸ್ಮಾ ಅನ್ನಗುಂ ರಾಧ್ಯತೆ ಯಏವಂ ವೇದ ಕ್ಷೇಮ ಇತಿ ವಾಚಿ ಯೋಗಕ್ಷೇಮ ಇತಿ ಪ್ರಾಣಾಪಾನಯೋ ಕರ್ಮೇತಿ ಹಸ್ತಯೋ ಗತಿರಿತಿ ಪಾದಯೋ ವಿಮುಕ್ತಿರಿತಿ ಪಾಯೋ ಇತಿ ಮಾನುಷೀ ಸಮಾಜ್ಞಾ ಅಥ ದೈವೀ ತೃಪ್ತಿರಿತಿ ವೃಷ್ಟೌ ಬಲಮಿತಿ ವಿದ್ಯುತಿ ಯಶ ಇತಿ ಪಶುಷು ಜ್ಯೋತಿರಿತಿ ನಕ್ಷತ್ರೇಷು ಪ್ರಜಾತಿರಮೃತಮಾನಂದ ಇತ್ಯುಪಸ್ಥೆ ಸರ್ವಮಿತ್ಯಾಕಾಶೇ ತತ್ಪ್ರತಿಷ್ಠೇತ್ಯುಪಾಸೀತ ಪ್ರತಿಷ್ಠಾವಾನ್ ಭವತಿ ತನ್ಮಃ ಇತ್ಯುಪಾಸೀತ ಮಹಾನ್ ಭವತಿ తన్మన ఇత్యుపాసీత మానవాన్ భవతి తన్నమ ఇత్యుపాసీత నమ్యంతే స్మై కామాః తద్బ్రహ్మేత్యుపాసీత బ్రహ్మవాన్ భవతి తద్బ్రహ్మణ పరిమళ ఇత్యుపాసీత పర్యేణం నియంతే దిశంతః సపత్రాః పర్యే ప్రియా భ్రాతృవ్యాః స యశ్చాయం పురుషే యశ్చాసావాదిత్యే స ఏకః స య ఏవం విత్ అస్మాల్లోకాత్ ప్రేత్య ఏతమన్నమయమాత్మానముపసంక్రమ్య ఏతం ప్రాణమయమాత్మానముపసంక్రమ్య ఏతం మనోమయమాత్మానముపసంక్రమ్య ఏతం విజ్ఞానమయమాత్మానముపసంక్రమ్య ఏతమానందమయమాత్మానముపసంక్రమ్య ఇమాన్ లోకాన్ కామాని కామరూప్యను సంచరన్ ఏతత్ సామగాయన్నాస్తే శ్లోకృత అహమస్మి ప్రథమజారితా పూర్వం దేవేభ్యో అమృతస్య నాభై యో మా దదాలి సై దేవమా అహమన్నమన్న మదంతమామి అహం విశ్వం భువనమభ్య భవాన్ సువర్ణ జ్యోతి ఏవం వేద ఇత్యుపనిషత్ సహనావవతు సహనౌ భునక్తు సహ వీర్యం కరవావహై తేజస్వినావధీతమస్తు మా విద్విషావహై శాంతి 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 ఈశాన సర్వవిద్యానాం ఈశ్వర సర్వభూతానాం బ్రహ్మాధిపతి బ్రహ్మనోధిపతి బ్రహ్మా శివో మే అస్తు సదాశివో తద్విష్ణో పరమం పదగం సదా పశ్యంతి సూరయః దివేవ చక్షురాతతం తద్విప్రాసో విపన్యవో జాగ్రువాగుం సస్సమిందతి విష్ణోర్యత్ పరమం పదం నారాయణాయ విద్మహే వాసుదేవాయ ధీమహి తన్నో విష్ణు ప్రచోదయాత్ తత్పురుషాయ విద్మహే మహాదేవాయ ధీమహి తన్నో రుద్ర ప్రచోదయాత్ ఓం సాయీశ్వరాయ విద్మహే సత్యదేవాయ ధీమహి తన్నః సర్వ ప్రచోదయాత్ హంసహంసాయ విద్మహే పరమహంసాయ ధీమహి తన్నో హంస ప్రచోదయాత్ స్వస్తి ప్రజాభ్యః పరిపాలయంతాం న్యాయేన మార్గేణ మహే మహేషా గోబ్రాహ్మణేభ్యః శుభమస్తు నిత్యం సమస్తలోకాః సుఖినో భవంతు సమస్తలోకాః సుఖినో భవంతు సమస్తలోకాః సుఖినో భవంతు ఓ
शा